चतुष्पदे अष्टापदे नवपदे बभूमिणे सहस्राक्षरा परमेभ्यो मन् यो वां पुष्पं वेद पुष्पवान् भजवान् पशुवान् भवति चन्द्रमा वा अवां पुष्पम् पुष्पवान् प्रजावान् पशुवान् भवति जातवेदसे शृणवापसोपपजाति यतो निदहाति वेदः धनः पर्षदति दुर्गाणि विश्वानावेव सिन्धुन्दुरितात्यग्निः तामग्निवर्णान्तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टा दुर्गां देवीं शरणमहं प्रपद्ये सुधरसि दरसे नमः अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा कोश्च पृथ्वे बहुला न पृथ्वी भवादोगागतनगागिषयोः विश्वानि नो दुर्गः जातवेदस्मिन् धन्दना वा दुरितादिपर्षे अग्ने अर्थिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् कृतनाजितं सहमानमुग्रमग्निकं कुवेव परमास्तसस्तात् धनः पर्षदति दुर्गानि विश्वाक्षामद्देवो दुरितात्यग्निः रत्नोषिकमेष अध्वरेषु धनाद्यहोदानं यच्छ तत्स्री स्वाञ्चाग्ने तनुवं विप्रयस्वास्मभ्यं चतोपगमाजितस्व कोभिर्जुष्टमयुजो निषिक्तन्तवेन्द्रविष्णोरनुसञ्चरेम नागस्य वृष्टमपि दम्बसा नो वेष्णवेल्लोकजिगमादिन्दा कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयाद्रवस्तोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिकनगजैस्नाविदा हेम कुम्भैर्हितं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रायतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनिता लोकैकदीपाङ्गुरां श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्द प्रियां सिद्धलक्ष्मी मूर्धलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मीश्च प्रसन्ना वरदास्ताम् वराङ्कुशापाशमभीतिमुद्रां करैर्वहन्तीं कमलाधनस्थाम् बालार्कगोडिद्युतिपादनेद्रां भजेहमार्जां जगदीश्वरीं तां सर्वमङ्गलमाङ्गल्ये दिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् श्रीर्वर्चस्वमायुष्यमारोऽव्यमाविदाच्छोभमानं महीयते धान्यं धनं वशुं बहुपत्रुलाभं सततं वत्सर दीर्घमायोः प्रणो देवी सरस्वती वाजेभिर्वाजिनीमते धीनामवित्रयवतो महातृपसुन्दरयै नमः यदोक्तं द्रवपुष्पं समर्पयामि हरिः ॐ हरिः ॐ अग्निमीडे पुरोहितं यज्ञस्य देवमृत्युजं होदारं रत्नधातवम् हरिः ॐ हरिः ॐ विषेतोर्येत्वा वायवस्थो वायवस्थदेवो वत्सविता प्रार्पयत श्रेष्ठतमाय कर्मणे हरिः ॐ हरिः ॐ अग्नायाहि वेदे गुणानोहविदादये निहोदाधत्सि परिजे हरिः ॐ हरिः ॐ शन्नो देवी द्रविष्टयापोहवन्द्वीतये शय्योरभिस्रवन्तु नः अथातो दर्शपूर्णवासौ जाख्यास्यामः प्रातरग्निहोत्रं भूत्वा अन्यमाहवनीयं वृणीय अग्ने मन्माधाते जगतस्योऽन्यमग्निं प्रणयते स्वस्ति प्रजाभ्यः परिपालयन्तः न्यायेन मार्गेण महिं महेशाः गोब्राह्मणेभ्यः शुभमस्य नित्यं लोकाः समस्ता सुखिनो भवन्तु काले वर्षतु पर्जन्यः पृथिवी सस्यशायिनी देशोऽयं गोवरहितो ब्राह्मणाः सन्ति निर्भयाः।